كانوا يهمني الصراحة. اللي سكان بكون مدينها عشان أنا كنت سكرين أتذكرني كان سبع قاتها جولاي ما سسي أشتاد أشها من أنا إينا أكشنا كمان ناي ما هي غمني ما هي إشفرا كتسنا من ياكل من بروكتن تسمعي بارني هي نمها أكيد كارم برا بيجيم هاشة كارم بكن جلين بارني من سطر كار إن سبحان الله توسمي من الكريم من الكريم نمسكرتيا تدك بيه بريخان كسر ஐயா கண்டு சித்தாந்த கொண்டு தீவிரம் ரசிக்க சந்தன பூச கலிங்க பிரக்கிறது புகாரந்தாக நம்பிக்கலிங்காரந்தேஷு பூச கலிங்கேஷு சாதாரண சப்தம் வாரி சப்தம் அது வாரி வாரிணி வாரிணி तत्र कः विशेषः इति चेत् अगादिषु विभक्तिषु सर्वत्र इतोपि विभक्तौ इत्यनेन निमागमः क्रियते प्रकृते प्रकृतिभागः वारि औ इत्यस्ति औ औङः पुंसकार्थेति शि आदेशः वारि इ इत्यस्ति वारि इति प्रकृतेः निमागमे वारिम् इणत्वे वारिणि इत्यनेन सर्वत्र अजादिषु विभक्तिषु इतोपि विभक्तौ इत्यनेन निमागमः क्रियते प्रत्ययद्वयं विहाय देर् आर् टु केसेस् इन् वारिशब्द वेर् इतोपि विभक्तौ विल् नाट् अप्लै सम्बडि मेन्शन् आर् रिकलेक्ट् विच् आर् द टु प्रत्ययस् इन् वारिशब्द वेर् वि डु नाट् अप्लै इतोपि विभक्तौ because the forms all sound the same everywhere in all other vibhaktis if we are in akara okay but still it is not all mum yet two pratyayas where there is something else which we are doing षष्ठी बहुवचनं आं प्रत्यये परे किं भवति नुडागमः क्रियते नुमागमं वा कृत्वा पूर्वविप्रतिषेधेन नुडागमः नुमचिरतृज्वद्भावेभ्यो लुट् पूर्वप्रतिषेधेन इति कृत्वात् सो ओवर् रूलिङ्ग् नुम् वि हेव् लुट् एण्ड् एन् अड्वाण्टेज् आफ़् हेविङ्ग् लुट् इन्स्टेड् आफ़् नुम् इस् वि आल्सो हेव् दीर्घ वै नामि सो दट् इस् वै वि हेव् आरीणाम् Even though that nakara is the same, whether nut or num, the na which we get is the same and it will be in the same place because vari is ajanta. So whether it is a tittagama for the pratyaya or a mittagama for prakriti doesn't make much of a difference in rupa. But if we do numagama, we cannot have a dirgha for ikara. As if we do nut, nami ittanena dirgha bhavati. Ataha varinaha varinaha variinam. इत्यत्र नुडागमः क्रियते ओके सो दट् इस् वन् दादा वन् टा तृतीयैकवचने टा प्रत्ययस्य आङ्गोनास्क्रियाम् इत्यनेन नाभावः क्रियते परत्वात् नुमागमं बाधित्वा नाभावः भवति So we have vari a, the a is replaced by na. Because it is a parakarya and vari shabda has ghisamya by sheshokhya sakhi, we have nabhava which is overruling numagama. So we have vari na and then we have natva which becomes vari na. Here even though we might not see any difference in rupa, whether we do num or we do nabhava, the rupa would be the same. So there could be a vyatyaya in swara, or even otherwise numagama cannot apply because it is overruled by nabhava. Okay, we go according to the sutra order. So vari shabdasya sthala dvaye pratyaya dvaye numagamah na bhavati. Aam pratyaya pare paratvat nabhava bhavati. Aam pratyaya pare purva pratishedhena nudagamah bhavati. Anyatra sarvatra ikoche vibhaktau iti numagamah. अनादि शब्दः अस्ति इकारान्तः नपुंसकलिङ्गः अनादि न विद्यते आदिः अस्य कृते तत्र को विशेषः भाषितपुंस्कत्वात् कुम्भद्भाष्यं तृतीयादिषु भाषितपुंस्कं कुम्भद् गालवत्स्य गालवत्स्य मते नपुंसकलिङ्गे यत् भाषितपुंस्कं विद्यते भाषितपुंस्कम् इस् अ वर्ड् विच् एक्सिस्ट् इन् पुल्लिङ्ग आल्रेडि एक्सिस्ट् इन् पुल्लिङ्ग एण्ड् नौ इट् आल्सो एक्सिस्ट् इन् नपुंसकलिङ्ग and it exists in the same with the same pravritti nimitta ikke bhashita namaskam ityuchyate. So as we saw last week, pravritti nimitta is the quality which means the something which qualifies that word to be used in that particular sense. For example, if you have anadi, pravritti nimitta would be anaditva, the property of not having a beginning. So whether we are using this word in pullinga or napumsakalinga, since the quality or the basic qualification remains the same, we say it has pravritti nimittaikye bhashita pumsakam vidyate tena tritiyadishu tritiya vibhakteha arabhya ajadishu pratyayeshu kumbadbhavah pullinge yatha tatha ekam rupam anantaram napumsakalinge yatha tatha tu bhavatyeva. अस्थिरति सत्यक्ष्णाम् अनमुदात्तः एतेषां चतुर्णां तृतीयादिषु अजादिषु स्टार्टिङ्ग् फ्रम् तृतीय इन् अजादि भवति वि हेव् अनङ् आदिश अनङ् नित्वा अन्तादेशः दधि आ इत्युच्यते अनगादेशे दधन् आ अल्लोपोनः इत्यनेन अल्लोपे दध्ना दध्ना सख्न अक्ष्णा इत्यादीनि रूपाणि. सो दट् वास् इट् अबौट् उकारान्त. इकारान्तनपुंसकलिङ्गेषु किं भवति ह्रस्वो नपुंसके प्रातिपदिकस्य इत्यनेन प्रातिपदिकत्वेन ह्रस्वः क्रियते. सो वेनेवर् वि हाव् नपुंसकलिङ्ग द फस्ट् थिङ्ग् वि डू इस् इत् प्रातिपदिक एन् जगदीथ कन्वर्टेड् टु ह्रस्व. इकारस्य स्थाने इकारः क्रियते. एव्रिथिङ्ग् एल्स् वुड् बि लैक् यु हाव् इन् पुल्लिङ्ग. सुधी शब्दः अस्ति सुधि इति क्रियते. तस्य इयङादेशः भवति नभूसुधियोः निषेधात् धातोः इकारः तेन इयङादेशः भवति. प्रतिशब्दश्चेत् एरनेकासः इति यण् भवति. पुल्लिङ्गे यथा तथैव कार्यम् एकं तु ह्रस्वः विशेषः. उकारान्ताः नपुंसकलिङ्गाः मधुशब्दः वारिशब्दवत् संस्था तु अजादिषु विभक्तिषु विकोसि विभक्तौ इत्यनेन अनुवागमः क्रियते. सानुशब्दस्य मांसपृतनासानूनां मांसपृत् स्नवोवाच्याः इति वार्तिकेन शस्प्रभृतिषु स्नु इति आदेशः विकल्पेन भवति. यथा पद्धन्वमास इत्यनेन आदेशः तथैव अनेन वार्तिकेन सानुशब्दस्य स्नु इति आदेशः. क्रियक्रोष्टु शब्दः क्रोष्टुशब्दस्य पुल्लिङ्गे कृज्वद्भावः कृज्वद्क्रोष्टुः इति कृज्वद्भावः विशेषः. अत्र तु ऋज्वद्भावात् पूर्वविप्रतिषेधेन नुमागमो भवति. वृद्ध्यौत्वगुण ऋज्वद्भावेभ्यः नुम् पूर्वविप्रतिषेधेन इति वाक्तिकेन नुम् ओवरूल्स् ऋज्वद्भाव. इवन् इफ् नुम् इस् द पूर्वसूत्र एण्ड् ऋज्वद्भाव इस् पर. सो आक्चुल् इन् आक्चुल् नपुंसकलिङ्ग फार्म्स् वी डु नाट् हियर् द ऋज्वद्भाव एनिवेर्. बट् उम्बद्भावपक्षे तु विभाषा द्वितीयादिश्वचि इति विकल्पेन ऋज्वद्भावः. Since this priyakroshtu happens to be bhashita pumstam, starting from tritiya, in Najadi Bhaktis you have an optional pullinga form. The pullinga form itself has an optional tajvadhava by vibhasha tritiya adishvachi. So you end up with two forms in kumbadhava and one form belonging originally to the napumsakalinga. So in total you would have three forms for the word starting from tritiya bhakti in Najadi Bhakti. इदानीम् अग्रे सरामः. ऊकारान्ताः नपुंसकलिङ्गाः यथा मया उक्तं दीर्घश्चेत् आदौ ह्रस्वो नपुंसकेन प्रातिपदिकस्य इति ह्रस्वः क्रियते. सुलु सुलुनि सुलूनि. सुष्ठु लुनाति लूञ्छेदने धातुः. शोभनः लुः इति समासे सुलू इति शब्दः. ऊकारान्तः नपुंसकलिङ्गः सुलु इत्यस्य कृते अनेन ह्रस्वे कृते सुलु इति भवति. ह्रस्वे कृते तु मधुशब्दवत् यथा उकारान्तसाधारणशब्दः तथा सुलु सुलुनि सुलूनि इति भवति. किन्तु अयं धातोः उकारः लू भीङ्गधातु. इवन् आफ्टर् यु हेव् गन्धह्रस्व इट् इस् स्टिल् द उकार स्टिल् बिलाङ्ग्स् टु द धातु. यु हेव् ए धात्ववयवः असंयोगपूर्वः वर्णः तेन नमस्तद्वत् इति उक्तं सुल्वा सुलुना. सो वेन् यु हेव् अ पुंवद्भाव सुलु भाषितपुंस्कत्वात् तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य इत्यनेन पुंवद्भावः क्रियते. पुंवद्भावपक्षे धातोः उकारः इत्यतः ओसुपि इत्यनेन यणादेशः क्रियते. सो दट् इस् वन् थिङ्ग् विच् स्पेशल् अबौट् धातु उकार. वेदर् द ईकार वेरेवर् द ईकार आर् उकार बिलाङ्ग्स् टु धातु यु हेव् यणादेश विच् ओवर्रूल्स् अदर्स्. इन् केस् आफ़् इकार इट् विड् बि एरनेकारसंयोगपूर्वकम्. इन् केस् आफ़् उकार इट् इस् ओः सुपि वर्णान्तस्य धातोः सुपि प्रत्यये परे अजादौ सुपि यणादेशो भवति ओसुपि इति सूत्रेण. सो सुल्वा इति रूपं पुमद्भावाभावे तु अनेनैव कोचि विभक्तौ इत्यनेन नुमागतः सुल्वा सुलुना इत्यादीनि रूपाणि. तृतीयादिषु भाषितपुंस्कम् इत्यनेन विकल्पेन पुम्बद्भावः भवति. दट् इस् इट् अबौट् ऊकारान्ताः नपुंसकलिङ्गः. देर् इस् नथिङ्ग् स्पेशल् जस्ट् यु डु ह्रस्व एण्ड् पुम्बद्भावः. अनन्तरं ऋकारान्ताः नपुंसकलिङ्गाः. धातृ धातृणी धातॄणि. धातृशब्दः त्रिजन्तः. धा धातोः तुष्प्रत्यये कृते धातृ इति पुल्लिङ्गेपि अस्ति नपुंसकलिङ्गेपि अस्ति. पुल्लिङ्गे धाता धातारो धातारः इति रूपाणि. अत्र तु धातृ धातृणी धातॄणि. एस् यूश्वल् यु हेव् नुवागम बै कोसि विभक्तौ. हे धातः हे धातृ. हे धातृ सु इत्यस्थिते सुप्रत्ययस्य स्वमो नपुंसकादित्यनेन लुक् भवति. लुकि कृते प्रत्ययलक्षणनिषेधः नलुमताङ्गस्य इत्यनेन प्रत्ययलक्षणनिषेधे सति हे धातृ इत्येव रूपं. किन्तु नलुमताङ्गस्य इति निषेधः अनित्यः इति पक्षे प्रत्ययः अस्ति सुप्रत्ययः अस्ति इति मत्वा किं क्रियते. हौ डु वि गेट् हे धातः. Anybody remember? Sorry? Correct. I mean, if there is no, if Nalumatangasya applies, we cannot do any karya. So it remains Hedhatri. If Nalumatangasya is assumed to be Anitya, that is, if we assume that Nalumatangasya does not apply here, which means we can use Pratyaya Lakshana and assume that the Supratyaya is still there. So what do we do having Suprata is my question. How do we get Hedhataha? What is the Sutra which applies? I mean, it is Sasya Gunaha, but yeah, one second. What's the lecture? Correct. It is Sasya Gunaha, but what do we do in this? How do we get here Dhataha in Pullinga? Even in Pullinga, the form is Dhata Dhata Rao Dhata Raha. Hey Dhataha, right? That is the form in Sambuddhi. How do we get Hey Dhataha in Pullinga? Do we do Hasvasya Gunaha? पुल्लिंगे पुल्लिंगे भी संबुद्धों हेधाता हा इत्ये वरुपम् तो क्या कहलाये धाता धाता रो धाता रहा हेधाता हा हेपिता हा सर्वत्र भवति तत्र कथम रूपसिद्धि ही इसे चश्मसे गुना हा It's not Rasasya Gunaha. What sutra is it? Dishanas Purudam Soniha Sancha will apply when it is Sambuddha Sarvanamastrami. So in Sambuddhi we cannot have Ananga. Dishanas Purudam Soniha Sancha says it is Ananga Adeshna. But that applies in Asambuddha Sarvanamastrami. What happens in Sambuddhi? Aptvantrich. Again, Aptvantrich is a sutra which gives Upadhadi Rukha, which also is Asambuddha Saranamasthani. अप्रंत्रचित्तेन सदन्तस्य उपधायाः दीर्घः भवति तदपि असम्बुद्धो सर्वनामस्थाने परे एव पुल्लिङ्गे हेधातः इति कथम् सर्वनामस्थानयोः इत्यनेन किं भवति तेन गुणः गुणः भवति कृतौ ङि सर्वनामस्थानयोः ऋदन्तस्य णौ सर्वनामस्थाने च परे गुणः भवति इत्यनेन हेधातर् ऋत्वे ऋतलेपस्य विसर्गे कृते हेधातर् Question was, what generally happens is when you ask Hedhataha, people tend to go back to the Rakaranta, then they say it is Pratomi Savanamasthana Yohu, which should not apply here because it is, it does not have Saranamasthana Samya. In Napumsakalinga, so it does not have Saranamasthana Samya. So even though the form is same, it cannot apply Pratomi Savanamasthana Yohu, and so you will have to correct saying it is Sasvasya Gunaha. But it is, so people do not remember that something else has to happen for Rakaranta, it becomes easy. Okay, so that is why we got the answer right away here, that it has to be Sasvasya Gunaha in case of Napumsakalinga, and that is how we get Hedhataha here. But Hedhataha in Pullinga has to be by Ritongi Sarvanamasthana. Both of cases it is Guna, but the Nimitta is different. And that is why, more importantly, that is why Dikshita gives the form here. If you notice, wherever he gives one extra form, it means there is something else. He is either trying to remind you of some fact or he is trying to point out something special. Okay. So the previous thing he just gave sulu suluni suluni and moved on. Here he is giving one extra thing. He is giving the form in Sambodhana, which means there is something in that. Okay. That is the style of Dikshita, which makes Kaumudi so interesting. We generally tend to forget. I mean, it is normal tendency. We forget lot of things which we studied earlier. But he keeps putting them back, saying, okay, you have to remember something here. So dhatra, dhatrana is again, it has to be dhatra, which is, adirgha is missing in my slide. So you have Pumbadbhava again. Dhatra is Bhashita Pumsaka, since it exists both in Pullinga and Napumsakalinga with the same Pravrtti Nimitta. So you have Pumbadbhava. Pumbadbhava Pakshe, Yanadeshe Krite Dhatra, Napumsakalinga Etu Numagame Krite Dhatrana. Right. Here it is again Numagama. Right? I mean, I also got confused. It is not Nabhava, because there is no Ghisamya. You have Varina, you have Madhuna, you have Dhatrana. There we have Angonastriya, because there is Ghisamya. Ghisamya is only for Ikarantas and Ukarantas. Here there is no Ghisamya, so Angonastriya would not apply. You will have Ikochi Vibhakta and there is Numagama giving Dhatrana. Dhatra is Ikoyanachi. Right? Evam Nyatra Kartradaya. All Trijantas can have forms in all three lingas. It's just Janati. If the Janati is Pullinga, it becomes Jnata. If it is Trilinga, it becomes Jnatri. Napumsakalinga, it becomes Jnatri. So all Trijantas have forms in Napumsakalinga. Sarvatra Dhatravat Rupani. And Okarantaha. There is no Ekaranta Napumsakalinga. Even for theoretical purposes, there is no Ekaranta Napumsakalinga. So he goes to O. Okarantaha Napumsakalingaha Pradyo Shabdaha. Pradyo Shabdaha Adhitaha Stri Linge. Prakrishta Dyauhu Yasya Tatu. Jaste. Iti Bahubrihi Samase Kate. Pradyo. Pradi Samasaha. Pradyo Iti Okarantaha Napumsakalinga Shabdaha. Kim Bhavati Atra Iti Prashnaha. Okaraha Dirghaha. Dirghaha itte karanena rasvo napumsake pratipadikasya iti hasvah karaniha. Wherever it is dirgha, it apply hasvaha. Do hasva for okara. But what would be the hasva for okara? Since the ing letters a, o, i, au do not have a rasva variety. Ejamapi dvadasha tesham rasva bhavat. Remember samyapatam. He says H, A, O, I, O do not have a hrasva variety. They exist only as either Deepa or Pluta. So what do we do? How do we do hrasva for Okara? The sutram vidyate, paribhasha sutram. Eta ik hrasva deshe. Vadatrayam. Echaha ik hrasva deshe. What is the sandhi here? When you have Ighraswadeshe. Ighraswadeshe ityatra kasandhihi. Satyam jayo honyatavasya. Ighraswadeshe ityatra chayah parasya hasya Purva Savarna Dirkaha Ityanena Ig Gha Hakarasya Purva Savarna Kartavya Varga Chaturthaha Adeshaha. All this was given as an example for using Bahya Prayatnas. How do we decide what is the Purva Savarna for Hakara? You cannot, if you use Sthana, you will only end up with Kakhagaghanga Kavargaha Labhyate. Tatra Kaha Ityukte. Sparsha samvaraha nadaha ghoshaha iti hakarasya bahya prayatnaha. The same bahya prayatnas exist with ga gha nga, right? There are three letters in kavarga which have the same bahupratham, which is gakara ghakara nakara. Punaha hakarasya mahapranaha prayatnaha. Tatra ghakarasya eva mahapranaha prayatnaha. So when we are doing purva savarna for hakara, that is by this in the sutra chayoho nekarasya, you get varga tatartha asta adesha. You have ig hrasva adesha, ig ghrasva adesha, ighasva adesha. When you split it, the gakara gets chatva by vavasanya. So we have echaha ik hrasvadeshe. Very simple. I mean, sutrartha should be very clear. Echaha hrasvadeshe ik. Adishyamaneshu hrasveshu echaha igeva syat. So when we have hrasvadeshe adesha for h, any of the h varna, you will have the corresponding ik varna as the adesha. So now, what would be the adesha for okara? That's the question. Ik ityanena I u ril ri iti chatvaraha varna santi. E chaha a o I o. So what do we do? Do we use, how do we decide? What should be the adesha? कथम ज्ञायते इक् वर्णेषु कः आदेशः स्यात् ओकारस्य ह्रस्वे कर्तव्ये उ कथम् हौ डु वि डिसैड् किमर्थम् उकारः एव स्थाने अन्तरतमः प्रसंगे सति सदृशतमः आदेशः स्यात् ओकारस्य स्थानं भवति कंठोष्ठम् सो इन इक देयर इज नो नो लेटर व्हिच हैज कंठोष्ठम अस स्थान किंतु उकारस्य ओष्ठौ स्थानं इति उच्यते सो अंतरतम्यात् ओकारस्य स्थाने उकारः भवति ह्रस्वादेशं कृते सो यः प्रद्यु अस द फॉर्म यु हैव प्रद्यो इट बिकम्स प्रद्यु प्रद्यु प्रद्युनी प्रद्युनी सो वन्स इट बिकम्स उकार लाइक मधु शब्द विल हैव इकोस विभक्तौ इत्यनेन अनुमागम क्रियते प्रद्युना इत्यादि फॉर्म इन तृतीया इट इज ओनली अ सिंगल फॉर्म विच इज प्रद्युना विच मीन्स देर इज नो कुंभद्भाव इफ देर इज अ सिंगल फॉर्म इट मीन्स कुंभद्भाव न कृतः किमर्थम कुंभद्भाव न कृतः भाषित पुंस्कत्वम् अस्ति किल इति प्रश्नः प्रद्यो यथा मया दर्शितं प्रकृष्टा द्यौः यस्य सः ऐम् सारी ऐ थिङ्क् ऐ सेड् दट् एस् प्रादिसमासः इट् इस् नाट् प्रादिसमासः इट् इस् बहुव्रीहि ऐम् वेरि सारी ऐ हेव् जस्ट् प्रकृष्टा द्यौः द्यौः दट् वुड् बि प्रादिसमासः दिस् इस् अ बहुव्रीहि समासः प्रकृष्टा द्यौः यस्य तत् वेरि ईज़िलि कुड् आल्सो से प्रकृष्टा द्यौः यस्य सः और् यस्य सा सो दिस् ईस् The samasa is abhashita pumska. So why do we not have pumvadbhava? Iha na pumvat yat igantam pradyu iti tasya abhashita pumskatva bhavat. He says there is no pumvadbhava here because the word in pullinga is pradyo, which is okaranta. When you have an iganta, that is when you do rasva and you have pradyu, the word pradyu is not found in pullinga. You have pradyo in pullinga and pradyu in napumsakalinga. So, tasya bhashita pumskatva abhava. Yata igantam pradyu iti. Pradyu iti ukarantam. Yata igantam. Tasya bhashita pumskatva abhava. That word does not exist in pullinga. That is why this is technically not considered a bhashita pumska. And hence, there is no pumvadbhava. Okay. Actually, for this point, there is some Matabheda, where according to some people there is no Bhashita Pumskatva for these, when for Ajantas, but according to others there is Bhashita Pumskatva because the original word is still Pradyo. We are doing Rasva by Rasva Anupamsake Pratipadikasya, which is just like any other Karya. So the since we say the Pratipadika is Okaranta, we are still saying the Pratipadika is Okarantam, Okarantaha Anupamsakalingaha Pradyo Shabdaha. Which exists in pullinga also. So there are two opinions regarding this. Some people do not accept bhashita pumska pumvadbhava, others accept pumvadbhava. Dikshita says there is no Humbat Bhava because this is not Bhashita Pumska. Evam Agrepi. Agrepi Arthat Aikarasya Aukarasya Vaha Svekratepi. Humbat Bhava Na Bhavati Ityarthaha. Aikarantaha Na Pumsakalingaha. Prarai Istiti. Prakrashtaraha Istiti. Rai Shabdaha. Pullinge Pesti, Stilinge Pesti, Aikarantaha. तस्य बहुव्रीह उक्रते प्ररै इति इदानीं नपुंसकलिङ्गशब्दः ह्रस्वे कृते प्ररि ऐकारस्य ह्रस्वे ह्रस्वो नपुंसके प्रातिपदिकस्य इत्यनेन ह्रस्वे कृते किं भवेत् इति चेत् एच इक् ह्रस्वादेशे इत्युक्तत्वात् इक् वर्णः आदेशः भवेत् इक् वर्णः नाम पुनः स्थानसाम्यात् ऐकारस्य स्थाने इकारः प्ररि ప్రరి ప్రరిణి ప్రరీణి వారి శబ్దవత్ ఏకదేశ వికృతస్య అనన్యత్వాత్ రాయోహలి ఇది ఆత్మ రిమెంబర్ రై శబ్ద ద స్పెషల్ కార్య ఫర్ రై వాజ్ రాయోహలి రై శబ్దస్య హలాదౌ విభక్తౌ పరతః ఆత్మ భక్తి రాహ రాయో రాయ రాయ రాభ్యాం రై భ్యాం ఇత్యుక్తే ఐకారస్య స్థానే ఆకారే ఇత్యుక్తే రాభ్యాం So, atrapi ekadesha vikratasya anannyatvat. So, the aikara has been just converted to ikara. It has got a rasva. It is not entirely lost. So, ekadesha vikratam ananyavat iti nyanyena. Ayamapi aikaraha, arthat raishabdaha iti svikritya. Rayohali ittenena aktam kriyate haladau vibhaktau. Tena prarina prarabhyam prarabhihi. So, In wherever the vibhakti is halari, you have atva. You could have got in su, but since su was deleted by luk, you do not have atva there. Starting from bhyam, bhis, bhyas, etc., you have atva. Prarabhyam, prarabhi. Numacharat dvidha vebhyaha iti nuti, atve praranam iti madhavaha. Aam pratyahasti, prari aam ityasti. इदानीं नुम् नुमागमः करणीयो वा नुडागमः करणीयो वा इति प्रश्नः यः प्ररि आम् किं करणीयमिति चेत् नुमचिरतद्वद्भावेभ्यः नुट् पूर्वविप्रतिषेधेन इति कृत्वात् नुडागमः भवति तेन किं भवति प्ररि नाम् इति भवति इदानीम् अस्य हलादित्वात् सिन्स् नौ दिस् विकेम् ए हलादि विभक्ति रायोहलि इत्यनेन आत्त्वं भवति आत्त्वे कृते प्रराणाम् इति रूपम् इति माधवः माधव He is a grammarian. Madhaviya Dhatuvritti is very famous. He is a Vaiyakarana. According to him, Nudagama Kriyate, Nudagame Krute, Haladitvata, Rayohali Ittenenatve, Praranam Iti Rupam. Vastu Tastu, Sannipata Paribhashaya, Nuti Atvam Na. Nudagama Katham Kriyate, Hrasva Nadhyapo Nuti. Hrasvantam మధ్యంతత్వం అభ్యంతత్వం అత్ర నాస్తి హ్రస్వాంతస్య అంగస్య చ సన్నిపాతం ఆశ్రిత్య నుడాగమః క్రియతే ఇదానీం ఆత్వే కృతే యువర్ లూసింగ్ దట్ హ్రస్వాంతత్వం యువ్ నుడాగమం కర్తుం హ్రస్వాంతస్య అంగస్య చ సన్నిపాతః అపేక్షితే ఆత్వే కృతే తు సః సన్నిపాతః నష్టః యువర్ బ్రేకింగ్ దట్ సన్నిపాత వెన్ యూ కన్వర్ట్ దట్ ఇకార టు ఆకార So, by Sannipata Paribhasha, you cannot do Atva. Nami iti dirghastu arambha samarthya Sannipata Paribhashaam badhate ityuktam. The same logic would apply even when you are doing dirgha by Nami. So, if you don't do Atva, what you do is prari namitastute. Nami ityanena dirgha kriyate prarina. The same thing is happening here. You are breaking the Sannipata Paribhasha. But in this case, you have a pramana. Arambha samarthya. I have already studied this in Ramanam. Right? Nami, the sutra itself was started to overrule Sannipata Paribhasha in case of Aam. In Aam, always when you have Nudagama, if the previous thing is Rasva, if you have to apply Nami, always it would be an against Sannipata Paribhasha. So if we use Sannipata Paribhasha everywhere, there is no place for Nami to apply. Okay? So, by the strength of Its existence, Nami overrules Sannipata Paribhasha. That is why you can do Dirgha by Nami. Overruling Sannipata Paribhasha. Prarinam iti bhavati. Kintu, Atva, Rayohali has other examples to justify its existence. Right? You have Prara, Parabhyam, Rabhihi, Sarvatra, Tasya Pravritti Bhavati. Atra, Prari Naam Itasthite, Sannipata Paribhashyam Avarodhum, Rayohali Ityasya Samarthyam Nasti. It does not have the ability to overrule Sannipata Paribhasha. Whereas Nami, just by virtue of his existence, can overrule Sannipata Paribhasha. So that is why the form should be Prarinam. Prarinam, Dudagame Krute, Nami Ityanena Dirghe Krute, Prarinam. Atvam Nabhavati Sannipata Paribhashayaha Virodhat. Is this clear? Any questions? Aukarantaha, Pumsakalingaha, Sunau. So, you resort to Bahubrihi everywhere. There are no Napumsakalinga words by themselves which are Engantas. You don't have Ekaranta, Aukaranta, Aikaranta, or Aukaranta words by themselves in Napumsakalinga. You're creating all of them by samasas. So, Shobhana, Nauhu, Yasya, Tatu. Iti Bahubrihi samasa ekrate. Aukarantaha, Nau Shabdaha. इदानीं नपुंसकलिंगे सुनौ इति रत्वे कृते सुनु इति भवति ह्रस्व नपुंसके प्रातिपदिकस्य सो फॉर बोथ ओ एंड औ व्हेन यू डू ह्रस्व इट विल बी उकार आदेश सो हैव सुनु सुनु सुनुनि सुनुनि सुनुना सो अगेन हियर देयर इज नो उमधाव हियर आल्सो So you have a single form which is sunu a sunna. Angonastriyamitune nabhava. Sunune ityadi. And the other cases it will be ikochi vibhakta ityane na numagamastriyate. Sunune sunubhyam sunubhyaha ityadi ni rupani. So that ends napumsakalinga. Ajanta napumsakalinga prakarana. Itra samapyate. Any questions? Okay, then just go through this completed Samya Paribhasha Panchasandhi and Ajanta Prakaranam, Nisvapra Prakaranam, which is a major part. So next trip is starting with Halantas. Again in Halantas you have the same thing. Halanta Pullingaha, Shilingaha, Napumsakalingaha. So again, the same pattern, Halanta Pullinga, Halanta Pullinga Prakaranam is a very vast Prakaranam. When you do Pullinga, the Trilinga and Napumsakalinga becomes much easier. We'll take up Halanta Pullinga Prakaranam from the next week, I think. I'm actually not prepared any presentation and today I'm not sure if I can. So there wouldn't be any class tomorrow. We'll start Halanta Pullinga Prakaranam next week, which is 25th. If you have any questions from the previous, any Prakaranam, any time, you can ask. It's been, I think, exactly 1 year since we started this. We started on 14 July, if I remember it right. So today is 18, so वन ईयर कवर्ड की लगन तो ना पहुंच पाएगा बात पर. सो ऑन एवरेज टू क्लासेस पर वीक पर दो वी स्टार्टेड थ्री. सो नेक्स्ट क्लास ऑन नेक्स्ट मंडे स्टार्ट विथ प्लेस द yeah, 1 year with joy. What is actually just today? 91st class means my numbers in the presentation is a bit off. I don't know why sometimes I've repeated the numbers or something. So, ఏనాక్షరసమాధిగమహేశ్వరాత్మ వ్యాకరణం ప్రోక్తం తస్మై పాణినియే నమః. వాక్యకారం వరరుచిం భాష్యకారం పతంజలి పాణినిం సూత్రకారం చక్రణోస్మిత్రయం నమస్కృత్య ఉదుక్తీశ్వరి భావ్యచ వైయాకరణ సిద్ధాంతకౌముదీ నిరచ్యతే.